कार्पण्यदोषोपहतः स्वभावः
कार्पण्यदोषोपहतः स्वभावः
पृच्छामि त्वाम् धर्मसम्मूढचेताः
पृच्छामि त्वाम् धर्मसम्मूढचेताः
यच्छ्रेयस्यान्निश्चितम् ब्रूहि तन्मे
यच्छ्रेयस्यान्निश्चितम् ब्रूहि तन्मे
शिष्यस्तेऽहम् शाधि माम् त्वाम् प्रपन्नम्
शिष्यस्तेऽहम् शाधि माम् त्वाम् प्रपन्नम्